इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः जतिनशर्मा। आदौ मुख्य वार्ताः। भारतीय जनता पार्टीति दलेन असम विधानसभा निर्वाचनाय स्वकीया 88 प्रत्याशिनां प्रथमा सूची प्रकाशिता। मुख्यमंत्री डॉ हेमंत बिस्वा सर्मा इत्येषः जालुकबारी निर्वाचन क्षेत्रात् प्रतिस्पर्धिष्यति। भाजपा दलेन केरल विधानसभा निर्वाचनार्थमपि 41 प्रत्याशिनां द्वितीया सूची निस्सारिता। पेट्रोलियम प्राकृतिक वातेंधन मंत्रालयेन राष्ट्रव्यापी वातेंधन आपूर्तेः 100% सुनिश्चितता घोषिता। सहैव एलपीजी संचयकरणं निरोद्धुं मंत्रालयेन पदक्षेपाः उत्थापिताः। रक्षामंत्री राजनाथ सिंहः भारतं स्वदेशीय ड्रोन निर्माणस्य वैश्विक केन्द्रं विधातुं मिशन मोड इत्याख्यायाः कार्ययोजनायाः अनुपालनाय आह्वानम् अकरोत्। अद्य देशस्य विभिन्नेषु भागेषु चैत्र नवरात्रोत्सवः आरभ्यते। चैत्र शुक्ल प्रतिपत, उगादि, गुडी पड़वा, चेटीचंद, नवरेह, साजीबू चेराओबा इत्यादयः नूतन वर्षोत्सवाः अपि आचर्यन्ते। अपि च आर्लियंस मास्टर्स बैडमिंटन प्रतिस्पर्धायां भारतस्य आयुष शेट्टी अद्य फ्रांस देशस्य पैलेस डेस स्पोर्ट्स क्रीडांगणे एकल पुरुषवर्गस्य 16 जापान देशस्य युदाई ओकिमोटो इत्यनेन सह प्रतिस्पर्धां करिष्यति। अथ वार्ताः विशदीकृत्य। भारतीय जनता पार्टीति दलेन असम विधानसभा निर्वाचनाय स्वकीया 88 प्रत्याशिनां प्रथमा सूची प्रकाशिता। मुख्यमंत्री डॉ हेमंत बिस्वा सर्मा इत्येषः जालुकबारी निर्वाचन क्षेत्रात् प्रतिस्पर्धिष्यति। असम राज्यस्य 26 विधानसभा आसनेभ्यः मतदानं तावत् अप्रैल मासस्य 9 एकस्मिन्नेव चरणे भविष्यति। भाजपादलेन केरल विधानसभा निर्वाचनाय अपि 41 प्रत्याशिनां द्वितीया सूची निस्सारिता। दलस्य पूर्व प्रदेशाध्यक्षः कुम्मनम राजशेखरन इत्यसौ अरनमुला क्षेत्रात निर्वाचन द्वन्द्वे भागं भजिष्यति। अन्येषु प्रमुखेषु नामसु कासरगोडतः अश्विनी एमएल, कोनगढ़तः रेणु सुरेशः, सहैव चंगनाशेरीतः बी राधाकृष्ण मेनन इत्येते प्रत्याशिनः सन्ति। नवदिल्ल्यां ह्यः आयोजितायां भाजपा केन्द्रीय निर्वाचन समित्याः मन्त्रणायाम् एतेषां नाम्नाम् अनुमोदनं कृतम्। केरलराज्ये अपि आगामि मासस्य 9 एकस्मिन्नेव चरणे मतदानं भविष्यति। अत्रान्तरे नामांकनस्य अन्तिमः दिवसः सोमवासरः वर्तते, अतः राज्ये निर्वाचनप्रचारः तीव्रगत्या प्रचलति। भाजपादलेन विभिन्न राज्येषु आगामि विधानसभा उपनिर्वाचनेभ्यः अपि स्वकीय प्रत्याशिनां सूची समुद्घोषिता। दलानुसारं गोवाराज्यस्य पोंडा क्षेत्रतः रितेश रविनायकः, नागालैंड राज्यस्य कोरिडांग क्षेत्रतः दाउचियर इप्चेनः निर्वाचन द्वन्द्वं करिष्यति। कर्णाटक राज्यस्य बागलकोट क्षेत्रतः वीरभद्रय्या चारंती मठः तथा दावणगेरे दक्षिण क्षेत्रतः श्रीनिवासटी दासकरियप्पा इत्येतौ प्रत्याशिनौ समुद्घोषितौ। त्रिपुरा राज्यस्य धर्मनगर क्षेत्राय जहार चक्रवर्ती इत्येतस्य नाम उद्घोषितम्। अयं निर्णयः भाजपाध्यक्षस्य नितिन नवीनस्य अध्यक्षतायां केन्द्रीय निर्वाचन समित्याः उपवेशने स्वीकृतः। उपवेशनेऽस्मिन् प्रधानमन्त्री नरेन्द्र मोदी, रक्षामन्त्री राजनाथ सिंहः, गृहमन्त्री अमित शाहः तथा च समित्याः अन्ये सदस्याः उपस्थिताः आसन्। सर्वकारेण उद्घोषितं यत् पश्चिम एशियायाः साम्प्रतिक घटनाक्रमेण देशे परिवहनार्थं पीएनजी तथा सीएनजी इति द्वयोः 100% आपूर्तिः सुदृढीकृता। पेट्रोलियम मन्त्रालयस्य संयुक्त सचिवेन सुजाता शर्मणा प्रोक्तं यत् विगत सप्ताहद्वये प्रायः 75,000 कौटुम्बिक व्यावसायिक संयोजनानि प्रदत्तानि। अपि च विगत त्रिषु दिनेषु 600,000-5,000 उपभोक्तारः पीएनजी प्रणालिकां प्रति स्थानान्तरिताः अभवन्। तया सूचितं यत् 17 व्यावसायिक एलपीजी इत्यस्य कृते आवंटन आदेशाः निर्गताः, आपूर्तिश्च सर्वेषु राज्येषु केन्द्रशासित प्रदेशेषु च प्रचलति। केन्द्रसर्वकारेण राज्येभ्यः पीएनजी संजालस्य विस्ताराय सहयोगः प्रार्थितः। सहैव व्यावसायिक एलपीजी इत्यस्य 10% आवंटनस्य प्रस्तावः उपस्थापितः। सा अवदत् यत् सर्वकारेण राज्येभ्यः सञ्चयकरणं तथा च कृष्णविपणनं रोद्धुं निर्देशाः प्रदत्ताः। यद्यपि एलपीजी इत्यस्य उपलब्धता अद्यापि चिन्तायाः विषयः अस्ति, तथापि तया स्पष्टीकृतं यत् भण्डारणस्य पूर्णतः समाप्तेः कोऽपि सङ्कटः नास्ति। तया विज्ञापितं यत् अन्तर्जालीय पञ्जीकरणं 94% यावत् प्रवृद्धं, तथा च जनसामान्यानां मध्ये व्याप्तं भयजन्य क्रयणम् अधुना न्यूनं जातम्। विदेशमन्त्रालयेन उक्तं यत् फेब्रवरी मासस्य 28 दिनांकात् एतावता प्रायः 2.8 लक्षं भारतीयाः पश्चिम एशियातः स्वदेशं प्रत्यागताः। अधिकारिभिः विज्ञापितं यत् सेफ सी विष्णु अभियानस्यान्तर्गतं निष्कासिताः 15 भारतीय नाविकसदस्याः इराकतः स्वगृहं प्रत्यागच्छन्ति। नौवहनमन्त्रालयेन पुष्टीकृतं यत् 11,600 भारतीय जलपोताः पूर्णतः सुरक्षिताः सन्ति, व्यापारश्च अविच्छिन्नरूपेण प्रचलति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। रक्षामन्त्री राजनाथ सिंहः आगामि वर्षेषु भारतं स्वदेशीय ड्रोन निर्माणस्य वैश्विक केन्द्रं विधातुं मिशन मोड इति विशिष्ट प्रणाल्या कार्यं कर्तुम् आह्वानं कृतवान्। राष्ट्रिय रक्षा उद्योग सम्मेलने भाषमाणः श्री सिंहः भूराजनीतिक अनिश्चिततायाः मध्ये रणनीतिक स्वायत्ततां सुदृढीकर्तुं रक्षासज्जतां वर्धयितुं तथा च आत्मनिर्भरताम् अग्रे नेतुं सशक्तस्य ड्रोन परितन्त्रस्य निर्माणे बलं प्रदत्तवान्। तेनोक्तं यत् MSME रक्षानिर्माणस्य प्रमुखस्तम्भरूपेण समेधते, येषु बहवः कृत्रिमप्रज्ञा स्वचालनं सहैव रोबोटिक्स क्षेत्रेषु निरताः सन्ति। सः एकस्य सुदृढस्य समावेशी रक्षा औद्योगिक परितन्त्रस्य प्रति सर्वकारस्य प्रतिबद्धतां पुनः प्रतिपादितवान्। राष्ट्रपतिपदासीना द्रौपदी मुर्मुः, उपराष्ट्रपतिः सीपी राधाकृष्णन्, प्रधानमन्त्री नरेन्द्रमोदी इत्येते चैत्रशुक्लप्रतिपदः पावनसन्दर्भे उगादि, गुडीपड़वा, चेटीचन्द, नवरेह, साजिबू, चेराओबा प्रभृति पर्वणां देशवासिभ्यः शुभकामनाः प्रदत्तवन्तः। तेलुगु नववर्षस्य उगादि उत्सवः सम्पूर्णे आन्ध्रप्रदेशे उत्साहेन आचर्यते। जनाः पारम्परिकविधिभिः नूतनवर्षस्य स्वागतं कुर्वन्ति। अद्य देशस्य विभिन्नेषु भागेषु चैत्रनवरात्र्योत्सवः आरभ्यते। चैत्रशुक्लप्रतिपदायाम् उगादि, गुडीपड़वा, चेटीचन्द, नवरेह, साजिबू, चेराओबा इत्यादयः नूतनवर्षोत्सवाः अपि आचर्यन्ते। पश्चिम एशियायां वर्धमाने अवसादे कतर देशस्य महत्वपूर्ण ऊर्जा आधारभूत संरचनायाम् आक्रमणस्य अनन्तरम् अमेरिकादेशेन ईरान देशाय सञ्चेतना प्रदत्ता। राष्ट्रपतिः डोनाल्ड ट्रम्पः अवदत् यत् कतरदेशोपरि ईरान कृतस्य प्रत्येक प्रहारस्य प्रत्युत्तरं वाशिंगटन प्रबलतया प्रदास्यति। यदि एतादृशानि आक्रमणानि पुनरपि भवन्ति तर्हि सः ईरान देशस्य साउथ पार्स इति वातेन्धनक्षेत्रं भेदयितुं शक्नोति। अधिकविवरणम् अत्र उपलभ्यते। आर्लियन्स मास्टर्स बैडमिंटन प्रतिस्पर्धायां भारतस्य आयुष शेट्टी अद्य फ्रांस देशस्य पैलेस डे स्पोर्ट्स क्रीडांगणे एकल पुरुषवर्गस्य 16 चरणे जापान देशस्य युदाई ओकीमोटो इत्यनेन सह प्रतिस्पर्धां करिष्यति। आयुष शेट्टी गतरात्रौ स्वदेशीयं क्रीडकं किरण जॉर्ज इत्येतं पराजित्य प्रागुपान्त्यचक्रे प्रविष्टवान्। एकल महिलावर्गे अनमोल खरब इत्येषा तन्वी शर्माणं विरुध्य प्रतिस्पर्धां करिष्यति। मालविका बंसोड अद्य सायंकाले मलेशिया देशस्य क्रीडिकायाः वोंग लिंग चिंग इत्यस्याः विरुद्धं प्रतिस्पर्धां करिष्यति। 16 चरणं प्राप्तवती इशारानी बरुआ तस्मिन्नेव वर्गे कनाडा देशस्य क्रीडिकायाः वेन यूजांग इत्यस्याः विरुद्धं प्रतिस्पर्धां करिष्यति।